एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः भाषते दण्ड पुरस्कारयोः उचिताभ्यासादेव सुशासनस्य समृद्धेश्च आधारो निर्मीयते। बाल्वाटारवर्तिनी प्रधानमन्त्री निवासे ह्यो वेतन सुविधोच्च स्तरीयायोगस्य प्रतिवेदनम् गृह्णन् प्रधानमन्त्री प्रचण्डः प्रतिवेदने उल्लिखितेषु नीतिगत विषयेषु क्रमशः गृहकार्यम् विधीयते, विधिगत विषयाः संघीय सर्वकारीय सेवाधिनियमे समावेक्ष्यन्ते, व्यावहारिक परामर्शानाम् तत्कालम् क्रियान्वयनम् च विधीयते इत्यभाषत। वर्तमान परिस्थितेः आवश्यकतायाश्च अनुसारेण कर्मचारिणाम् वेतनमाने सेवा सुविधासु च पुनर्विचारः आवश्यको स्थिति ब्रुवन् प्रधानमन्त्री प्रचण्डः सर्वकारः उच्चस्तरीय प्रशासन सुधारायोगस्य संगठनस्य अन्तिम पूर्व कार्यस्थिति अज्ञापयत्। तदवसरे आयोगस्य संयोजकः लीलामणि पौडेलः प्रतिवेदने नेपालस्य अर्थतन्त्रस्य संक्षिप्त विश्लेषणम्, दक्षिणैशैक राष्ट्रेषु कर्मचारिणाम् सेवा सौविध्यानाम् अवस्था, सेवा सौविध्यानाम् सम्बन्धे नवीन प्रस्तावश्च सन्तीति अबोधयत्। प्रतिवेदने उपचार वित्तस्य, अवकाश सम्बद्ध व्यवस्थायाः, कर्मचारिणाम् आवासस्य, यातायात सौविध्यस्य, वर्तमान समय दृष्टायाः स्थितिहीनतायाः नियमन सम्बद्ध व्यवस्थायाश्च विषयाः समाविष्टाः सन्ति। प्रतिवेदने कर्मचारिणाम् पदसंख्यायाः न्यूनीकरणाय एकम् पदम् एकम् निवृत्तिभरणम् चेति नीत्यै द्वैध वेतन निवृत्तिभरणयोः नियमनाय निवृत्तिभरणात् राज्याय सृष्टस्य भारस्य न्यूनीकरण सम्बद्ध विकल्पाय श्रमिकाणाम् न्यूनतम पारिश्रमिक निर्धारणाय च परामर्शाः प्रस्तुताः सन्ति। सामाजिक सुरक्षा भरणस्य, राजस्व सौविध्य सम्बद्धायाः नवीन व्यवस्थायाः प्रस्तावस्य, वैदेशिकानुदान परिचालन सम्बद्धायाः राष्ट्रिय नीतेः, अन्तर्राष्ट्रिय सर्वकारेतर संस्थानाम् नियमनस्य, कर्मचारिणाम् कार्यविवरणस्य मूल्यांकनस्य च विषयाः प्रतिवेदने समाविष्टाः सन्तीति आयोगस्य संयोजकः पौडेलः अबोधयत्। अष्टदलीय गठबन्धनस्य पक्षतो राष्ट्रपतेः प्रत्याशी नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः लोकतन्त्रस्य, संविधानस्य च रक्षायाः परिपालनायाश्च विषयः आत्मना महत्वपूर्णः मतोस्थिति वदति। अस्यैव फाल्गुनस्य पञ्चविंशे दिवसे सम्पत्स्यमानस्य राष्ट्रपतिर्निर्वाचनस्य प्रत्याशितायाः सन्दर्भे ह्यो राष्ट्रिय समाचार समित्या सह वरिष्ठ नेता पौडेलः आत्मना षड्भिः दशकैः प्रजातन्त्राय संघर्षो विहितो स्थिति हेतोः वर्तमान संविधानस्य, लोकतन्त्रस्य च रक्षा एव प्रथमम् कर्तव्यम्, दायित्वम् च भवतः इत्यगदत्। असौ अवोचत् संविधानेन, लोकतन्त्रेण च सहितस्य परिवर्तनस्य उपलब्धीनाम् रक्षणस्य सन्दर्भे राष्ट्रपतेर भूमिका महत्वपूर्ण भवति। नेकपा माओवादी केन्द्रस्य उपाध्यक्ष कृष्णबहादुर महरा कथयति संविधानस्य, गणतन्त्रस्य च रक्षणेन सह शान्ति प्रक्रियायाः अवशिष्ट कार्याणि पूरयितुम् कांग्रेस दलेन सह सहकार्यम् विहितमस्ति। उदयपुर जनपदस्य कटारी स्थाने ह्य प्रारब्धस्य एकीकृताखिल नेपाल शिक्षक संगठनस्य कोशी प्रदेश शाखाया द्वितीय सम्मेलनस्य क्रमे आयोजिते पत्रकार मेलन कार्यक्रमे उपाध्यक्ष महरा अष्टानाम् दलानाम् संयुक्त प्रत्याशी रामचन्द्र पौडेलः राष्ट्रपतौ विजयी भविष्यतीति न्यश्चिनोत्। राष्ट्रपतेः दायित्वमेव संविधानस्य, गणतन्त्रस्य च रक्षा, शान्ति प्रक्रियायाः अवशिष्ट कार्याणाम् पूरणञ्च वर्तते इत्यतः वर्तमान राजनीतिक समीकरणम् निर्मितमिति असौ प्रत्यपादयत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति असत्य विचारम् पराजेतुम् बौद्धिक संघर्षः आवश्यको वर्तते। भक्तपुरस्य गट्ठाघरस्थाने ह्य आयोजिते नेपाल बुद्धिजीवी परिषदः केन्द्रीय समितेः उपवेशे असौ देशस्य पक्षे सत्कर्म सम्पादनस्य क्रमे सर्वतः एमाले दले प्रहारो विहित इति दुःखानुवेदनम् व्यक्तवान्। अध्यक्ष ओली विभिन्नान् संचार माध्यमान्, सामाजिक सञ्जालादीञ्च प्रयुज्य बौद्धिक जगति क्रियाशीलाः भवितुम् बुद्धिजीविनः अन्वरुणत्। य एव दलस्य ललितपुरस्य च्यासलवर्तिनी कार्यालये स्थानीय स्तर कर्मचारी संघ नेपालेन आयोजिते कार्यक्रमे अध्यक्ष ओली अवोचत् देशस्य परिवर्तनाय, रूपान्तरणाय च दलस्य कार्यकर्तारः परिचाल्यन्ते। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः भाषते देशे विद्यमानं भ्रष्टाचारं विकृतिं च समाप्य सुशासनाय विकासाय च प्रवर्तितव्यम्। ह्य भक्तपुरे आयोजिते कार्यक्रमे अध्यक्षो नेपालः दायित्ववाहिनां कर्तव्यनिष्ठानां च विद्यार्थिनां उत्पादनं शिक्षा क्षेत्रेण विधेयमिति उदैरयत्। सर्वैः परस्परं सम्मानस्य आदरस्य च भावना विकसनीयेति बलं प्रददत् अध्यक्षो नेपालः सुसंस्कृतेः समृद्धेः प्रगतेश्च विदिशि प्रवर्तितव्यमिति विचारं व्यक्तवान्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति दूरसंचार सेवायाः गुणस्तरीयता विश्वसनीयता सर्वसुलभता च वर्तमान आवश्यकता वर्तते। नेपाल दूरसंचार प्राधिकरणस्य रजत जयन्त्याः अवसरे पूर्वेद्युः काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री शर्मा अवोचत् दूरसंचार सेवायाः नीतिगतायां विधिगतायां च संरचनायां सुधारं कृत्वा दूरसंचार सेवायाः विकासः विस्तारश्च आवश्यकौ स्तः। संचार सूचना प्रविधि मन्त्री शर्मा अब्रवीत् दूरसंचार क्षेत्रस्य विकृति विसंगतिः निवार्य नियमनम् अतिरिक्तं प्रभावकारी विधातव्यम्। मन्त्री शर्मा कठिन विपत्तौ अपि दूरसंचार सेवायाः निरन्तरं सुचारू संचालनत्वेन कार्यसम्पादनम् आवश्यकमस्तीति भाषमाणा नियामक निकायानां सेवा प्रदायक संस्थानां च सेवाग्राहिणः प्रति गाम्भीर्यावलम्बनम् अत्यावश्यकमस्तीति संस्पष्टयत्। मन्त्रालयस्य निमित्त सचिव नेत्र प्रसाद सुवेदी समावयपूर्ण भूमिकायां विद्यमानेन प्राधिकरणेन त्रुटिः न्यूनीकृत्य सेवां गुणस्तरीयां विधातुं भूमिका निर्वोढव्यति अगदत्। प्राधिकरणस्य अध्यक्ष पुरूषोत्तम खनालः अकथयत् प्राधिकरणं दूरसंचार सेवां गुणस्तरीयां विश्वसनीयां सर्वसुलभां च विधातुं सदैव क्रियाशीलं वर्तते। उपराष्ट्रपति नन्दबहादुर पुन भाषते आदिवासी जनजातिभि स्वेषां परिचयस्य विषयो न त्याज्यः। नेपाल मगर संघेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे उपराष्ट्रपति पुन आदिवासी जनजातिभि स्वेषां परिचयस्य विषयो न त्यक्तव्यः इति चर्चयन् अगदत् आदिवासी जनजातीनाम् एकतायां खण्डितायां सत्यां जनजातीनां परिचयस्य विषयः गौणो भविष्यति। नेपाल पर्यटन समित्या नेपाल भ्रमणाय आगतैः वैदेशिक पर्यटकैः पथ प्रदर्शकेन विना पदयात्रायां गन्तुं न शक्यते इति निर्णयः विहितोऽस्ति। समितेः निर्देशकस्य मणिराज लामिछाने विदस्य अनुसारेण पदयात्रां सुरक्षितां विश्वसनीयां व्यवस्थितां च सम्पादयितुम् एवं निर्णयः विहितोऽस्ति। निर्णयोऽसौ आगामिनः चैत्र मासस्य अष्टादश दिवसात् क्रियान्वेष्यते। क्षेत्रे आबद्ध श्रमिकाणां संयुक्त संघटनस्य च याचनायाः पश्चात् समित्या पदयात्रां गन्तुकामैः पर्यटकैः अनिवार्यतया पथ प्रदर्शकाः नेतव्याः इति व्यवस्था विहितास्ति। समित्या सूचना सम्पर्क प्रणाल्याः पिधानेन सहैव अतपरं सर्वविधानां पर्यटकानां कृते समान प्रकृतिक प्रणालीयं वितरयिष्यते इति ज्ञापितं वर्तते। त्रिभुवन विश्वविद्यालये आगामिनः चैत्र मासस्य पञ्चमे दिवसे सम्पत्स्यमाने स्वतन्त्र विद्यार्थी संघटनानां निर्वाचने सत्तारूढ गठबन्धनस्य निकटस्थैः विद्यार्थी संघटनैः सहकार्यं विधास्यते। समितेः निर्वाचने सत्तारूढ गठबन्धनस्य दलानां भातृ संघटनैः नेपाल विद्यार्थी संघेन अनेरास्वभ्यु क्रान्तिकारी विद्यार्थी संघटनेन अनेरास्वभ्यु समाजवादी विद्यार्थी संघटनेन च सहकार्यं कृत्वा निर्वाचनम् स्पर्धितुं सहमतिः धृतेति अनेरास्वभ्यु क्रान्तिकारी संघटनस्य अध्यक्ष पञ्चासिंह अज्ञापयत्। आगामिनः चैत्र मासस्य पञ्चमे दिवसे त्रिभुवन विश्वविद्यालयस्य द्वाषष्ट्याम् आंगिकेषु चत्वारिंशदधिक सहस्रे प्राप्त सम्बन्धनेषु च विद्यापीठेषु स्वतन्त्र विद्यार्थी समितेः निर्वाचनं सम्पत्स्यमानं वर्तते।